नमो गणेश विघ्नेश गिरिजानंदन प्रभु मम विघ्नं निहत्याशु सर्वसिद्धि प्रदो भव ॐ सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवति मे सदा ॐ सहनावतु सहनौ पुनस्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै
धन्यवादः भगिनि. सर्वेभ्यो नमः. अस्माकं प्रचलन् विषयः अस्ति तत्र विशेषणविशेष्यभावः. तस्मिन् विषये वयं बहु किमपि कृतवन्तः. तत्र एकां कथां पठितवन्तः, अनेकान् अभ्यासान् कृतवन्तः. इदानीं तत्र प्रायशः अन्तिम अभ्यासद्वयम् एव अस्ति इति मन्ये. तदनन्तरं नूतनविषयः भवति सर्वनामशब्दाः इति. अतः तत्र किञ्चित् एव अस्ति. लक्ष्मी भगिनी नमस्कारः. लक्ष्मीभगिनी
नमस्कारः महोदय.
नमस्कारः भगिनि. अस्तु तर्हि तत्र कोऽपि स्मरति वा? तत्र गतवर्गे अहं चिन्तयामि तत्र पुटसङ्ख्या 46 मध्ये अष्टम अभ्यासः यः अस्ति तत्र अर्धभागं कृतवन्तः वा अथवा पूर्णतया कृतवन्तः वा? षट् पर्यन्तं वा? अहं तत्र तत्र किम् अहम् इमं योगम् इति खलु विवस्वते. हा तदेव. अस्तु अस्तु समीचीनम्. अस्तु धन्यवादः. अस्तु सूर्यकुमारी भगिनी अग्रे पठति वा?
सप्तमम्.
हा सत्यं भगिनि.
योगिनः इन्द्रियैः अपि कर्म कुर्वन्ति. मञ्जूषायाः पदानि केवलेन केवलाभ्यां केवलैः इन्द्रियैः
तत्र वचनं किं विभक्ति का इति उक्त्वा
इन्द्रियः तृतीय बहुवचनं पुल्लिङ्गः
प्रायशः इन्द्रियम् इति इन्द्रियम् इन्द्रियम् इति अस्ति भगिनि
नपुंसकलिङ्गः केवलैः.
हा समीचीनम्.
इन्द्रियैः अपि कर्म कुर्वन्ति.
हा योगिनः केवलैः इन्द्रियैः अपि कर्म कुर्वन्ति इति समीचीनं भगिनि. तत्र एकवचने किं भवति? करोति इति. करोति कर्म करोति
करोति
कर्तृपदं कर्तृपदं किं भवति? करोति इत्युक्ते तत्र केवलं कस्य परिवर्तनं भवति? क्रियापदस्य एकवचनरूपं स्वीकुर्मश्चेत्
योगी.
हा योगी केवलैः करोति. समीचीनं भगिनि. हा तावदेव समीचीनं. हा अस्तु धन्यवादः. अस्तु अग्रे रघुपतिमहोदय.
हा महोदय. ऋषयः ब्रह्मनिर्वाणं लभन्ते ऋषयः इति अत्र
महोदय तत्र अष्टम. सत्यं सत्यं ऋषयः
तदेव खलु
ब्रह्मनिर्माणं. सत्यं सत्यं ब्रह्मनिर्माणं
कर्मशः क्षीणकर्मशौ. हा क्षीणकल्मषाः ऋषयः ब्रह्मनिर्वाणं लभन्ते.
क्षीणकल्मषाः
ऋषयः लभन्ते.
ऋषयः लभन्ते
कीदृशः ऋषयः? क्षीणकल्मषाः इति भवति अत्र. कल्मषः कल्मषौ इति अत्र एकं तु द्विवचने अस्ति. क्षीणकल्मषः इति एकवचने अस्ति.
तत्र एकवचने तत्र लभते इति अस्ति चेत्
लभते लभते क्षीणकल्मषः ऋषिः ब्रह्मनिर्वाणं लभते.
लभते. हा समीचीनं महोदय. अपि क्षीणकल्मषः तत्र पुनः प्रायशः बहुव्रीहि एव खलु. तत्र यस्य कल्मषः क्षीयते अथवा क्षीयन् अस्ति
सः
ऋषिः,
तादृशऋषिः.
समीचीनम्.
इत्युक्ते किं
कल्मषः? कल्मषः इत्युक्ते तत्र यद् समीचीनं नास्ति, तत्र
मनसि विकारः अस्ति.
हा विकारः अस्ति, मलं मलम् इति वदामः खलु भगिनि. तत्र येन वयं शरीरे बद्धाः स्मः, अतः तत्र कल्मषः इति तत्र. अतः तत्र किन्तु ऋषिः तस्य किं प्रयत्नेन, तस्य आचारेण अपि, तस्य तपसा किं भवति, सर्वेषां कल्मषाणां क्षयः भवति, नष्टं भवति. हा ते सर्वे अपगच्छन्ति, कल्मषाः अपगच्छन्ति. अतः तादृश ऋषयः, ऋषिः इति अस्ति किन्तु तत्र केवलं नाम्ना ऋषिः अस्ति चेत् न. हा किन्तु यः तत्र साधारणतया ऋषिः इति नाम्ना न भवति, किन्तु सर्व अतः तत्र क्षीणकल्मषः ऋषिः एव साधारणतया भवति. अतः क्षीणकल्मषः ऋषिः ब्रह्मनिर्वाणं प्राप्नोति. तदेव.
धन्यवादः.
अस्तु अग्रे भवती एव भगिनि अग्रे.
अस्तु. योगी देशे आसनं प्रतिष्ठाय योगं युञ्ज्यात्. योगी तु एकवचन, देशे तु सप्तमी, सप्तमी अस्ति चेत् शुचि शुचौ शुचि, सप्तमी शुचि एव समीचीनमिति मन्ये. योगी शुचि देशे आसनं प्रतिष्ठाय योगं युञ्ज्यात्.
तत्र
प्रथमरूपमेव समीचीनं महोदय. देशे तु सप्तमी एकवचनम् अपि ह्रस्व इकारात् अपि समीचीनं महोदय. शुचि
शुचिः देशः, शुचौ देशे. तत्र
अत्र तु हलन्त नास्ति, हलन्त अस्ति चेत् तु भिन्न अस्ति, किन्तु भूमि यथा भूमि महोदय, भूमि भूमौ शुचि शुचौ.
सत्यं भगिनि. हा तत्र तत्र एतत् प्रायशः विधिलिङ्ग् अस्ति युञ्ज्यात् इति, किन्तु तत्र रघुपतिमहोदय धातु कः इति जानाति वा? तत्र
युजि धातु अहं चिन्तयामि, युजिर् धातु अहं चिन्तयामि महोदय. युज्यते, युजि धातु अहं चिन्तयामि. युजिर् इति अस्ति अत्र इनुमागमः भवति इति तोनं धातु इति. ईकार युजिर् इति मूले मूले अस्ति, ईकारस्य लोपः भवति उपदेशावस्थाम्. अतः
तत्र युज्यताम् इति प्रायशः लोट् लकारे,
युञ्जात् इति, युञ्जात् इति भवति, नुमागमः भवति युञ्जात् इति,
युञ्जात्
युञ्जात्
इति, युञ्ज्यात् युज्यात् युञ्ज्यात्
युञ्जति. अत्र अनुस् नकारः भवति, अनन्तरं तत्र तस्य सन्धि भूत्वा ञकारः भवति युञ्जात् इति.
तत्र युज् इति तु तत्र द्वयमस्ति, तत्र एकमस्ति
युजिर् इति, युजिर् इति तत् अस्ति वा?
युजिर् युजिर् योगे, युजिर् योगे.
हा तदेव तदेव वा? तदेव अहं चिन्तयामि,
तदेव अहं पश्यन् अस्मि महोदय. एकनिमिष लोट् लकार युङ्क्तात् युनक्तु युङ्क्ताम्. हा तदेव अस्ति विधिलिङ्ग्. हा विधिलिङ्ग् परस्मै युञ्ज्यात्. हा युज् धातुः 07000 07 अष्टाध्यायी मध्ये
आम् तदेव तत् नुमागमः भवति नकारः भवति किमर्थमिति तत्र इकारस्य लोपः भवति खलु अतः यत्र इकारस्य लोपः भवति उपदेश अवस्थायाम् अनन्तरं तत्र नुमागमः भवति इति अस्ति
अस्तु महोदय अस्तु अस्तु तत्र युञ्जिर् इकारः अस्ति मध्ये अस्तु
युञ्जिर् इति अनुनासिक अनुनासिक इकारः अस्ति अतः अतः तत्र भवति
समीचीनं महोदय अतः लट्लकारे अपि युनक्तिः इति अस्ति लकार अस्तु समीचीनं महोदय अस्तु धन्यवादः
पदान्तस्य झलि इति सूत्रेण महोदय
अत्र अत्र नास्ति महोदय तत् अत्र न तत् तत्तु अत्र आर्धातुके प्रत्यये परे भवति एतत् सरदत्क अस्ति खलु अत् स्नम् इति धातु अस्ति खलु स्नम् इति विकर्णप्रत्यय अतः एव विकर्णप्रत्यय तत् रुदादिगणे अस्ति रुदादिगणे सारात्कप्रत्यये परे न भवति आर्धात्कप्रत्यये परे नुमागमः भवति अत्र न भवति
धन्यवादः अस्तु अतः तत्र किन्तु तत्र युञ्ज्यात् इति तु विधिलिङ्ग् इति
विधिलिङ्ग्लकारः
विधिलिङ्ग्लकारः अस्तु अग्रे लक्ष्मी भगिनी
हा अस्तु महोदय मनः अस्ति मनः नपुंसकलिङ्गपदं मनः बलवतः अस्ति
हा न भगिनि तत्र मनः इति दृष्ट्वा तत्र बलवत् हा समीचीनं बलवत्
बलवत्
अस्ति बलवत् अस्ति तत्र बलवत् इति तत्र प्रातिपदिकम् अस्ति यस्मिन् बलम् अथवा बलः अस्ति तत्र सः अथवा तद् बलवत् नपुंसकलिङ्गे बलवान् पुल्लिङ्गे बलव तत्र प्रायशः बलवती इति स्त्रीलिङ्गे अस्ति इति मन्ये अतः अत्र तु मनः सकारान्तपदम् अतः मनः बलवत्
बलवत् अस्ति
अस्ति समीचीनं भगिनि इदानीं तत्र मनः बलवत् अस्ति इति तत्र तृतीया एकवचनरूपं किं भवति
मनसा बलवता
हा समीचीनं भगिनि हा भवता इति तादृश बलवता मनसा इति समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु अग्रे सूर्यकुमारी भगिनि अग्रिमे पुटे
कोष्टकस्थानि विशेषणपदानि क्रमशः उपयुज्य विशेष्यपदानां लिङ्गवचनविभक्त्यनुगुणं वाक्यानि पूरयत विशेष्यपदानाम्
तत्र क्रमशः इति अस्ति खलु भगिनि तत्र कोष्टकस्थानि विशेषणपदानि क्रमशः उपयुज्य क्रमशः उपयुज्य इत्युक्ते किम्
उचितपदानि
न उचितपदानि न क्रमशः इत्युक्ते यत् प्रथमं दत्तमस्ति तस्य प्रयोगः प्रथमतया करणीयः तावदेव
द्विपदे अस्ति
हा द्वे पदे स्तः तत्र प्रथमपदं प्रथमतया प्रयोगं करोतु द्वितीयपदं तस्य प्रयोगम् अनन्तरं
करोतु
हा सत्यं
पूरयतु
हा समीचीनम् इदानीं
प्रथम अपि जनाः सम्भूय कार्यं साधयितुं शक्नुवन्ति बहुवचनम् अस्ति पुल्लिङ्गबहुवचनं प्रथमाविभक्तिः दुर्बल पदं प्रातिपदिक दुर्बलप्रातिपदिकम् अस्ति दुर्बलाः
समीचीनं दुर्बलाः जनाः
सम्भूय द्वितीयपदम् अस्ति साधयितुं कार्यं नपुंसकलिङ्गे एकवचनम् अस्ति
क्षम्यतां महोदय तत्र महत् अस्ति
महत्
एव अस्ति महत् एव अस्ति तत्र पुल्लिङ्गे महान् इति किन्तु
महत् कार्यं साधयितुं शक्नुवन्ति
हा महत् कार्यं साधयितुं शक्नुवन्ति दुर्बलः अपि जनाः ये जनाः दुर्बलाः इति चिन्तयामः ते अपि तत्र सम्भूय महत् कार्यं साधयितुं शक्नुवन्ति ते अपि तत्र अतः तत्र किं तत्र एषः कर्तुं न शक्नोति एषा कर्तुं न शक्नोति इति तादृशचिन्ता मास्तु दुर्बलाः जनाः अपि महत् कार्यं कर्तुं शक्नुवन्ति साधयितुं शक्नुवन्ति इति समीचीनं भगिनि अस्तु अस्तु अग्रे रघुपतिमहोदय
आम् महोदय परीक्षायां छात्राः उत्तीर्णाः भवन्ति अनुत्तीर्णाः भवन्ति श्रद्धावत् श्रद्धावान् श्रद्धावन्तौ श्रद्धावन्तः श्रद्धावन्तः श्रद्धावत् इति अस्ति अतः परीक्षा छात्रा इत्यस्य विशेषणमस्ति बहुवचने अस्ति परीक्षायां श्रद्धावन्तः छात्राः उत्तीर्णाः भवन्ति अनुत्तीर्णाः भवन्ति के अलसः इति अलसः अलसौ अलसाः अलसाः उत्तीर्णाः भवन्ति
अनुत्तीर्णाः भवन्ति समीचीनं छात्राः इति तत्र तु बहुवचने अस्ति किन्तु तत् पुल्लिङ्गे अपि भवितुमर्हति स्त्रीलिङ्गे अपि भवितुमर्हति अतः तत् स्त्रीलिङ्गरूपम् अपि
श्रद्धा अहं चिन्तयामि श्रद्धावत्यः वा श्रद्धावत्यः छात्राः उत्तीर्णाः भवन्ति
अलसाः अनुत्तीर्णाः भवन्ति समीचीनं महोदय अस्तु
छात्रा सर्वदा श्रद्धावती भवति श्रद्धावान् भवति
सत्यम् सत्यं भवति अस्तु गीताञ्जलि भगिनी अग्रे शुभदा भगिनी नमस्कारः
नमस्कारः महोदय
पेज् 47 मध्ये स्मः
ओके
गीताञ्जलि भगिनी अग्रे
भवन्तः मार्गेण गच्छन्तु न तु अस्तु मार्गेण भवन्तः बहुवचनं
भवन्तः तु बहुवचनं किन्तु तत्र अपेक्षितं किमस्ति पदं दत्तमस्ति विशेषणपदं कस्य विशेषणं भवति दत्तं पदं
ऋजु इत्युक्ते किं महोदय
ऋजु तत्र
स्ट्रैट् मार्गः अस्ति ऋजु मार्ग ऋजु इत्युक्ते सर्वत्र अस्माकं तु भवति तत्र तत्र विशेषणम् ओपोजिट् अस्ति खलु महोदय ऋजु वक्र दृढ मृदु अस्माकं तदपि अभ्यासः भवति विलोम तस्य विलोम
पुंलिङ्गपदं
मार्गः तत्र तु प्रातिपदिकमेव दत्तमस्ति भगिनि अतः तत्र पुल्लिङ्गरूपं स्वीकृत्य कुर्मः
अस्तु अस्तु भवन्तः गुरुवत् अस्ति चेत् ऋजुणा मार्गेण गच्छन्तु न तु वक्रेण मार्गेण
अस्तु समीचीनं किन्तु तत्र अत्र किञ्चित् सावधानम् अपेक्षितं भगिनि तत्र नत्वं कुत्र भवति कुत्र न भवति इति
भवन्तः ऋजुना
मार्गेण गच्छन्तु न तु
वक्रेण
हा अत्र भवति, अत्र णत्वं भवति, खवर्गीय पवर्गीय अस्ति चेत् तत्र भवति खलु, अन्य अन्ये तत्र अन्यवर्गः अस्ति चेत् बाधा भवितुम् अर्हति, किन्तु तत्र वक्रः तत्र खवर्गीय अतः वक्रेण न तु वक्रेण मार्गेण, भवन्तः रुजुना मार्गेण गच्छन्तु न तु वक्रेण मार्गेण. समीचीनं भगिनि. अस्तु लक्ष्मी भगिनी अग्रे.
अस्तु महोदय. वृक्षेषु डाश् कुसुमानि शोभन्ते, वृक्षेषु दृढ अस्ति मृदु, दृढेषु दृढेषु वृक्षेषु मृदूनि
मृदु उकारन्त तत्र वस्तु वस्तु इति प्रायशः अस्ति इति मन्ये भगिनि.
कुसुमानि मृदूनि
वस्तूनि इव इति मन्ये भगिनि, मृदूनि इति भवति इति
अतः मृदु मृदूनि 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 कुसुमानि शोभन्ते
हा इति भवति इति मन्ये भगिनि. समीचीनं. हा तत्र
दृढेषु वृक्षेषु मृदूनि
कुसुमानि
मृदूनि कुसुमानि शोभन्ते.
हा समीचीनं भगिनि. अस्तु समीचीनम्. अस्तु अग्रे शुभदा भगिनि.
महोदय, भारतं भारतं विशालं राष्ट्रं, नेपालं मधुवत् भवति वा, मधु मधुनि मुनि
लघु
नेपालं लघु राष्ट्रं
लघु राष्ट्रं तत्र लघुम् इति न भवति लघु एव. समीचीनं भगिनि. अस्तु अग्रे सूर्यकुमारी भगिनि.
महोदय, भवन्तः जनेभ्यः जनेभ्यः बहुवचनं भवन्तः जने पुल्लिङ्ग बहुवचनं
विभक्ति का तत्र तत्र जनेभ्यः दूरे तिष्ठन्तु इति अस्ति
दूरे भवन्तः जनेभ्यः जनेभ्यः जनः जनेभ्यः दूरे तिष्ठन्तु
विभक्ति का भवितुम् अर्हति तत्र
दूरे तिष्ठन्तु दूरे
हा समीचीनं भगिनि. पञ्चमी तत्र रूपं दृष्ट्वा किं भवितुम् अर्हति तत्र रूपं
दुष्टेभ्यः दुष्टेभ्यः जनेभ्यः दूरे तिष्ठन्तु.
हा समीचीनं भगिनि. तत्र भवन्तः दुष्टेभ्यः जनेभ्यः दूरे तिष्ठन्तु.
अनन्तरं जनेभ्यः न साधुभ्यः जनेभ्यः न
हा गुरुभ्यः गुरुभ्यः अस्ति साधुभ्यः साधुभ्यः जनेभ्यः न
दूरे
इत्युक्ते न न दूरे मा तिष्ठतु दूरे हा समीपे तिष्ठतु इति समीचीनं. हा समीचीनं भगिनि. हा अस्तु अतः तत्र किन्तु तत्र प्रायशः तत्र साधूनां जनानां समीपं समीपे तिष्ठतु इति प्रायशः भवति. हा किन्तु अत्र जनेभ्यः दूरे तिष्ठतु. हा अस्तु भवन्तः दुष्टेभ्यः जनेभ्यः दूरे तिष्ठन्तु साधुभ्यः जनेभ्यः न इति. समीचीनं भगिनि. अस्तु रघुपतिमहोदय.
हे भगवन् शक्तिं यच्छतु शक्तिं शक्तिं तादृशी शक्तिः इति अहं स्त्रीलिङ्गे अस्ति वा तादृशीं शक्तिं यच्छतु येन अपि कार्यं साधयेयं येन साधयेयम् इति अहं चिन्तयामि. एतत्तु कर्मणि प्रयोगः अस्ति वा
सर्वं सर्वमपि
कर्मणि प्रयोगः वा सोरि कार्यं साधयेयं सर्वमपि कार्यं सत् केन सर्वमपि कार्यं साधयेयम् आमां सर्वमपि
साधयेयम् अहं साधयेयम् इति उत्तमपुरुषे एकवचने अस्ति खलु महोदय
साधयेयम् आमाम् उत्तमपुरुषे एकवचने अस्ति एतत् साधयति इति अहं चिन्तयामि निजन्त अस्ति साधयति पठेयं
किन्तु
न कर्तरि एव अस्ति अहं चिन्तयामि येन सर्वमपि कार्यं साधयेयम् इति भवति खलु
सत्यं सत्यं सर्वमपि कार्यं सत्यं महोदय किन्तु तत्र तादृशीं शक्तिं यच्छतु तदनन्तरं तत्र अन्वयः भवति चेत् तत्र यया इति प्रायशः भवति
ओ अस्तु शक्ति इति शक्ति इति स्त्रीलिङ्गे अस्ति वा
शक्ति अतः साधारणतया
पुल्लिङ्गे अस्ति वा
शक्ति तु
यया इति भवेत्
हा शक्तिः तु स्त्रीलिङ्गे एव अस्ति खलु
आं चिन्तयामि महोदय अत्र
शक्तिः अस्तु अतः तत्र मम पुस्तके अपि येन इति अस्ति अतः तत्र
पुरातनपुस्तके
इदानीं यया इति अस्ति समीचीनम् अस्ति अस्तु अतः इदानीं समीचीनम् अस्ति तत्र तादृशीं तत्र तादृशीं दीर्घैकारः तादृशीं शक्तिं यच्छतु यया
सर्वम् अपि कार्यं साधयेयम्
अग्रे गीताञ्जलि भगिनि
दण्डं कर्तयामि चेत्
भगिनि न श्रूयते
श्रूयते महोदय
हा इदानीं श्रूयते भगिनि मम दोषः वदतु भगिनि
महोदय प्रश्नः अस्ति सप्तमबिन्दे द्वितीय वचनं वा प्रथमवचनं वा
कुत्र भगिनि
शक्तिं
शक्तिं वा
कार्यं साधय अहं कार्यं साधयेयम् इति भवति अत्र कर्मपदमस्ति
तत्र
शक्तिं कर्मपदं
शक्तिमपि भगिनि
न न शक्तिः नास्ति तदपि तदपि कर्मपदम् आमां
तदपि कर्मपदं महोदय खलु
आमामां तदपि कर्मपदमस्ति यच्छतु किं यच्छतु
मह्यं यच्छतु मह्यं यच्छतु
साधयेयं किं साधयेयं कार्यं साधयेयं
तादृशी द्वितीयवचनं
तादृशीं तादृशीं नदीवत् भगिनि तादृशी तत्र तादृशः तादृशी तादृशम् इति अतः स्त्रीलिङ्गे तादृशी नदीवत् अस्ति अतः तादृशीं शक्तिं
यच्छतु
तत्र स्त्रीलिङ्गे अस्ति वदतु भगिनि
महोदय अत्र यदि प्रातिपदिकम् आवरणे दत्तं तत्तु अत्र तु पुंलिङ्गं प्रातिपदिकं दत्तं
न न भगिनि तत्र तादृश इति एव स्वीकरणीयमस्ति तत्र तादृश इति तस्य तत्र यथा तत्र भवत् इति पदस्य प्रातिपदिकस्य किन्तु तत्र वयं चिन्तयामः तत्र भवत् इति पद इति तस्य पुल्लिङ्गरूपम् अस्ति भवत् भवत् शब्दस्य एव तत्र पुल्लिङ्गरूपं तत्र भवान् इति भवति भवत् इति पदस्य प्रातिपदिकं स्त्रीलिङ्गरूपं भवती इति इति तत्र अतः तादृश अर्थे भगिनि सत्यमेव तत्र प्रायशः तादृशी यदि दत्तवन्तः क्लेशः न भवति किन्तु अत्र चिन्तनं तत्र लिङ्गमपि न वक्तुम् इच्छन्ति ते तावदेव अतः तत्र एतत् अभ्यासः एषः अभ्यासः अस्ति खलु भगिनि अतः तत्र ते किम् इच्छन्ति अस्तु तत्र वयं न वदामः लिङ्गं किमपि न वदामः भवन्तः एव तत्र लिङ्गं किं विभक्ति का सर्वं तत्र सर्वेषां निर्णयं कृत्वा तत्र रिक्तस्थाने उचितं रूपं स्थापयतु इति. अस्तु, अग्रे भगिनी भवति एव.
अस्तु महोदय, दण्डं कर्तयामि चेत् दण्डौ सिद्ध्यतः. दीर्घ अत्र तु दण्डं कर्तयामि, दण्डं तु कर्मपदं. दीर्घं दण्डं कर्तयामि चेत् दण्डौ सिद्ध्यतः. दण्डौ इति सप्तमी एकवचन
न भगिनि, तत्र दण्डः, दण्डः इति
द्वितीय द्विवचने महोदय.
अत्र द्वितीयभागे द्विवचने, सत्यं
द्विवचने. दण्डौ सिद्ध्यतः,
सिद्ध्यतः,
सिद्ध्यतः अपि द्विवचने,
द्विवचने, सत्यं
यथास्थः. अस्तु अस्तु, ह्रस्वौ सिद्ध्यतः,
ह्रस्वौ दण्डौ सिद्ध्यतः,
सिद्ध्यतः.
तत्र दीर्घं, दीर्घः दण्डः अस्ति, तद् यदि कर्तयामः तत्र किं भवति इदानीं, तत्र ह्रस्वदण्डद्वयम् अस्ति अथवा ह्रस्वौ दण्डौ सिद्ध्यतः. तत्र तत्र कर्तयामः इति कृत्वा तस्मात् एतौ नूतनौ ह्रस्वौ दण्डौ सिद्ध्यतः इति. तावदेव. अस्तु, समीचीनं. लक्ष्मी भगिनी अग्रे.
अस्तु महोदय, वृष्टौ कदाचित् वृक्षाणां पतनं भवति न भवति, उन्नत वामन दत्तम्.
तत्र वृक्षाणाम् इति वृक्षः, वृक्षः इति तत्र उन्नत, उन्नतः अस्ति चेत् तत्र उन्नत इति
षष्ठी बहुवचनं, अतः उन्नतानां वृक्षाणां.
समीचीनं.
वृष्टौ कदाचित् उन्नतानां वृक्षाणां पतनं भवति, वामनानां न भवति.
वामनानां न भवति. तत्र वृष्टौ इति पदस्य विभक्ति का?
सप्तमी.
वृष्टिः, वृष्टिः, वृष्टौ, वृष्टौ. समीचीनं भगिनि. तावदेव, वामनानाम् उन्नतानाम्, उन्नतानां वामनानां. समीचीनम्. अस्तु, अग्रे शुभद भगिनि.
विनीत अविनीत, विनीताभिः बालिकाभिः सह क्रीडतु, न तु अविनीताभिः सह. सः सः अस्ति, अतः तृतीयाविभक्ति बहुवचनं भवति. अपि च बालिकाभिः अस्ति तस्य, तेन कारणेन विनीता बालिका, विनीताभिः बालिकाभिः, अविनीताभिः बालिकाभिः.
समीचीनं भगिनि, बहु समीचीनम्. अस्तु, अग्रे सूर्यकुमारी भगिनि.
स्वातन्त्रसङ्ग्रामे बहवः धीराः युक्ताः युवकाः प्राणार्पणं कृतवन्तः.
प्राणार्पणं कृतवन्तः, प्राणस्य अर्पणं कृतवन्तः, अथवा प्राणान् अर्पितवन्तः. प्राणानाम् अर्पणं कृतवन्तः, अथवा प्राणान् अर्पितवन्तः. स्वातन्त्र्यसङ्ग्रामे बहवः धीराः युवकाः प्राणार्पणं कृतवन्तः. समीचीनं भगिनि. अस्तु, ते सर्वे युवकाः स्मरणीयाः. अस्तु, अग्रे रघुपतिमहोदय.
आं महोदय, गुरवः छात्रैः सह शास्त्रचर्चां कुर्वन्ति. गुरवः कीदृश गुरवः? अत्र दक्षाः गुरवः छात्रैः सह. कीदृशैः छात्रैः? धीमान् छात्रः. अतः धीमद्भिः भवद्भिः धीमद्भिः धीमद्भिः छात्रैः सह शास्त्रचर्चां कुर्वन्ति.
हा समीचीनं. तत्र दक्षः इत्युक्ते तत्र
दक्षकुशलः अथवा
निपुणः
निपुणः
तीक्ष्णः तीक्ष्णबुद्धिः यस्य सः तादृशः अर्थः दक्षः. दक्षः दक्षाः गुरवः धीमद्भिः
छात्रैः सह शास्त्रचर्चां कुर्वन्ति.
समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनि.
वयं परिश्रमं कृत्वा वयं महत् अस्ति महान् परिश्रमं कृत्वा
तत्र परिश्रमम् इति किमस्ति तत्र परिश्रमं
महान्तं वा परिश्रमः
परिश्रमः किम् अस्ति
कर्मपदमस्ति
किन्तु तत्र परिश्रमः इति पुल्लिङ्गे अस्ति भगिनि परिश्रमः
महान्तं
महान्तं महान्तं
कर्मपदं महान्तं
महान्तं
महान्तं क्षम्यतां महोदय
महान्तं खलु तत्र अथवा महन्तम् एव वा क्षम्यतां भगिनि
महान्तं वा
महान्तं भवान् अपि भवन्तं महान् महन्तम् इति महोदय
रघुपतिमहोदय भवान् एव उक्तवान् तत्र महान् इति पदस्य रूपाणि
आमामां सत्यम्
महत् भिन्नमस्ति अतः महान्तं खलु
महान्तम् इति भवति
वयं महान्तं परिश्रमं कृत्वा संस्कृतभाषां समग्रे विश्वे प्रसारयामः
अस्तु भगिनि तत्र वयं महान्तं परिश्रमं कृत्वा संस्कृतभाषां समग्रे विश्वे प्रसारयामः संस्कृतभाषामिति तत्र विभक्ति का
संस्कृतभाषां तु द्वितीया महोदय
हा संस्कृतभाषां तत्र द्वितीय किं प्रसारयामः संस्कृतभाषां प्रसारयामः
विश्वे प्रसारयामः कीदृशविश्वे समग्रे विश्वे
हा समग्रे विश्वे प्रसारयामः हा अस्तु तत्र महान्तमेव अस्ति भगिनि तत्र भवत्वत् नास्ति तत्र हा तत्र अष्टाध्यायी मध्ये इदानीं तत्र शब्द इति रूपाणि द्रष्टुं शक्नुमः खलु
ओ अस्तु वा
हा इदानीं शब्दः अपि रूपाणि दत्तानि सन्ति
सर्वाणि दत्तानि तत्र
अनेकानि सन्ति अतः तत्र महत् इति तकारान्तपुल्लिङ्गः इति अस्ति अत्र अष्टाध्यायी .com मध्ये शब्दः इति स्थापयति चेत् लभ्यते तत्र महान्तम् इति एव रूपं दत्तमस्ति अतः
अस्तु
रघुवीरानन्दस्वामी नमस्कारः
हरिः ओं महोदय नमस्कारः
भवान् इदानीमेव आगतवान् वा अहं चिन्तितवान् भवान् अस्ति किन्तु अहं न दृष्टवान् इति अस्तु अतः पेश नास्ति अस्तु अस्तु महोदय तत्र पेज् 47 मध्ये स्मः अस्तु लक्ष्मी भगिनी अग्रे भगिनी
अस्तु महोदय सः लताभ्यः पुष्पाणि चिनोति कोमल मनोहर सः लताभ्यः पञ्चमी बहुवचनं
समीचीनं
अतः कोमलाभ्यः लताभ्यः मनोहराणि पुष्पाणि चिनोति
समीचीनं भगिनि तत्र लताः सन्ति कोमलाः लताः सन्ति ताभ्यः सः पुष्पाणि
बहुवचनं
कीदृशानि पुष्पाणि मनोहराणि
मनोहराणि पुष्पाणि
पुष्पाणि चिनोति मनोहराणि इत्युक्ते तत्र यत् पुष्पं मनं मनः हरति तादृशपुष्पं मनोहरम् अतः तत्र मनोहरं मनोहराणि पुष्पाणि समीचीनम् अस्तु अग्रे शुभदा भगिनि
जनानां किमपि असाध्यं नास्ति महत् इति जनानाम् इति षष्ठीविभक्ति बहुवचनं महत् शब्दस्य षष्ठीविभक्ति बहुवचनं महतां भवति महतां जनानां किमपि असाध्यं नास्ति
हा तत्र महतां जनानां किमपि असाध्यं नास्ति तत्र कर्तृपदं किमस्ति अस्मिन् वाक्ये
महतां जनानां किमपि असाध्यं नास्ति जन जनः इति कर्तृपदं किमपि क्षम्यतां किमपि इति कर्तृपदं किम् इति
हा किम् इति किं किमपि असाध्यं नास्ति तत्र असाध्यं नास्ति किमपि असाध्यं नास्ति कस्य किमपि असाध्यं नास्ति महतां
जनानां
जनानां किमपि असाध्यं नास्ति तत्र अर्थः तु तत्र समीचीनः एव किन्तु अस्ति इति कृत्वा अस्ति नास्ति यत्र अस्ति तत्र कर्तृपदं बहु सरलम् अस्ति इति कृत्वा वयं चिन्तयामः अस्तु अस्तु तद् नास्ति अन्यत् भवेत् इति
सत्यं सत्यम्
अस्तु अग्रे रघुवीरनन्दस्वामी तत्र इदानीं तत्र अन्तिमवाक्यं तत्र सुन्दर समीचीन इति अस्ति तत्र पदद्वयं स्वीकृत्य तत्र उचितानि रूपाणि वक्तव्यं महोदय
अन्तिमं वा
भवत्यः पेज् 47 मध्ये प्रथम 9th अभ्यासः नवम अभ्यासः अन्तिमवाक्यः अन्तिमवाक्यं
भवत्यः आम् भवत्यः आपणं गत्वा न लेखनीः क्रीणन्तु
अच्छा अच्छा लेखनीः क्रीणन्तु
लेखनीः क्रीणन्तु
कीदृशीः लेखनीः क्रीणन्तु
सुन्दरी समीचीना च लेखनीः क्रीणन्तु महोदय
सुन्दरीः लेखनीः बहुवचने सुन्दरी इति एव भवति सुन्दरा नास्ति सुन्दरी इति सुन्दरी लेखनी अपि समीचीना इति भवति अतः समीचीना इति पदस्य द्वितीयविभक्ति बहुवचनं किमस्ति
द्वितीया महोदय
हा द्वितीया खलु महोदय क्रीणन्तु इति अस्ति
कर्मपदं लेखनी
कर्मपदं लेखनीः इति
द्विवचने बहु द्वितीयविभक्ति बहुवचनं
द्वितीयविभक्ति बहुवचनं तत्र कर्तृपदं किमस्ति अस्मिन् वाक्ये
कर्तृपदं तु भवत्यः
भवत्येव
लेखनी
भवत्यः कर्तृपदम् अतः लेखनीः कर्मपदम् लेखनीः इति पदस्य विशेषणमपि द्वितीयविभक्ति एव
द्वितीया बहुवचनं
बहुवचनं हा इदानीं यत् भवता उक्तं तत्तु समीचीनं सुन्दरी सुन्दरीः लेखनीः तत्तु समीचीनम् इदानीं तत्र समीचीना इति भवति
महोदय समी
अतः लतावत् लतावत् लता लते लताः इदानीं द्वितीयविभक्तौ लतां
लते
पुनः लताः एव महोदय
लताः एव तदपि समीचीनाः
हा च लेखनीः क्रीणन्तु हा भवत्यः आपणं गत्वा सुन्दरीः समीचीनाः च लेखनीः क्रीणन्तु इति अस्तु समीचीनं महोदय अस्तु अग्रे सूर्यकुमारी भगिनि
मञ्जूषायाः उचितानि विशेषणपदानि चित्वा कथां पूरयत
कथां पूरयत हा अस्तु भगिनि तत्र मञ्जूषायाः इति अस्ति तत्र विभक्ति का तत्र
मञ्जूषायाः षष्ठी एकवचनं
अथवा तदपि समीचीनम् अथवा
पञ्चमी
एकवचनमपि समीचीनं भगिनि. मञ्जूषा मञ्जूषायाः इति. किन्तु तत्र पूर्वं वाक्यम् आसीत्, तत्र लक्ष्मी भगिनी पठितवती इति मन्ये, तत्र चतुर्दशवाक्यं. सः किं करोति?
कोमलायाः
कोमलाभ्यः
कोमलाभ्यः लताभ्यः
मनोहराणि पुष्पाणि शिनोति. तत्र लताभ्यः इति अस्ति, तत्र विभक्तिका
लताभ्यः
पञ्चमी बहुवचनम्. अत्रापि मञ्जूषायाः, तत्र तस्मात् इति अर्थे, तस्मात् तत्र मञ्जूषा अस्ति. मञ्जूषा तु स्त्रीलिङ्गे अस्ति, अतः तत् तस्मात् इति न वक्तुं शक्नुमः, किन्तु तस्मात् इति चिन्तयतु, तस्याः इति, अतः मञ्जूषायाः इति तत्र पञ्चमी. सत्यं महोदय. मञ्जूषायां यानि पदानि दत्तानि सन्ति तेषु उचितं विशेषपदम् अस्तु. अतः तत्र प्रायशः तत्र न जानामि, तत्र एषा कथा प्रायशः
कथा अस्ति
किन्तु तत्र एषा कथा तत्र पञ्चतन्त्रायाः कथा अस्ति, तत्र संस्कृतभारत्याः तत्र अन्यत् पुस्तकमस्ति, तत्र एषा कथा दत्ता अस्ति, किन्तु अस्तु पठतु भगिनि.
कश्चन व्याधः आसीत्.
तत्र एतत् कुर्मः, वाक्यद्वयं स्वीकृत्य वदामः भगिनि, तत्र किं किं तत्र स्थापनीयम् अस्ति इति.
कश्चन व्याधः आसीत्.
कीदृशव्याधः इति, व्याधः इति पदस्य विशेषणं किं भवति अत्र? व्याधः इति पदस्य, व्याधः इति कीदृशपदं लिङ्गं किं?
व्याधः प्रथम एकवचनं.
लिङ्गं
पुल्लिङ्गः.
पुल्लिङ्गं पुल्लिङ्गपदं समीचीनम्. अतः तत्र किं किं पदम् अस्ति तत्र पुल्लिङ्ग एकवचनपदं प्रथमविभक्तिरूपम्? एकमेव अस्ति भगिनि, तत्र एकं न द्वयमस्ति,
किन्तु
परमः अपि अस्ति. अतः व्याधः इति जानाति वा भगिनि, व्याधः इत्युक्ते
मारयति.
अतः कीदृशः व्याधः?
परमः.
न परमः न, निष्ठुरः. निष्ठुरः इत्युक्ते क्रूरः. क्रूरः व्याधः. व्याधः इति जानाति खलु भगिनि, सूर्यकुमारी भगिनि? पशून् मारयति पशून् अपि पक्षिणं मारयति सः व्याधः. हण्टर् सः क्रूरः एव भवेत् खलु. अतः निष्ठुरः, कश्चन निष्ठुरः व्याधः आसीत्. इदानीं सः वनं गत्वा, वनम् इति कीदृशं वनम्?
घोराणि
इति एव अस्ति. प्रायशः घोरं वनम् इति प्रायशः नास्ति इति.
घोरं निविडं घोरम् एव.
घोरं
अस्ति, घोरमपि अस्ति.
अस्तु, घोरं वनं गत्वा. अस्तु भगिनि, घोरं वनं गत्वा
जालेन पक्षिणः गृहीत्वा तान् विक्रीय जीवति स्म.
पक्षिणः गृहीत्वा इति तत्र गृहीत्वा इति अस्ति, अतः पक्षिणः इति किं भवति?
पक्षिणः
बहुवचनं, हा समीचीनं भगिनि. तान् तान् विक्रिय इत्युक्ते कान् विक्रिय?
पक्षिणः.
हा पक्षिणः विक्रिय जीवति स्म. कः जीवति स्म?
व्याधः.
हा व्याधः, सः निष्ठुरः व्याधः जीवति स्म. समीचीनं भगिनि, अस्तु. अग्रे रघुपतिमहोदय.
गृहीत्वा एकदा सः जालं प्रसार्य पक्षिणां ग्रहणं करोति स्म, तावता वृष्टिः सञ्जाता. एकदा सः जालं, कीदृशं जालं प्रसार्य इति अस्ति. विपुलं निष्ठीनां मृतस्य दुःखितं धन्यं सर्वान् महती उन्नते परमः दग्धम् उन्नतस्य सर्वे आर्द्रं लघूनि लघूनि नास्ति अतीव घोराणि समग्रं एतं महत्त्वं न
प्रायशः
विपुलमेव अस्ति वा? विपुलमेव भवति. समीचीनं भवति.
महोदय, मम पुस्तके विपुलं नास्ति.
किमस्ति भगिनि?
महती तु
स्त्रीलिङ्गस्ति.
जालं तु नपुंसकलिङ्गमस्ति. सर्वाणि पदानि वदामि वा?
न, तत्र केवलं एकदा सः महती जालम् इति दत्तमस्ति न वा भगिनि?
महती तु समीचीनं महोदय.
महती अनन्तरम् आगच्छति, तावदा महती वृष्टिः सञ्जाता इति.
हा वृष्टिः इति अत्र महती वृष्टिः तस्य भवति.
किन्तु जालम् इति तु नपुंसकलिङ्गे अस्ति.
अतीवं भवेत् जालं प्रसार्य, किं प्रसार्य इति अस्ति खलु लबन्तपदमस्य, अतः अत्र द्वितीयविभक्तिः भवति. विपुलम् आर्द्रम् इत्युक्ते वेट् वेट्.
अस्तु, विपुलम् इति चिन्तयामः
इति
कुर्मः यदि अग्रे गत्वा तत्र तत्र समस्या भवति.
कुत्र दत्तं विपुलं महोदय?
प्रथमपदं भगिनि.
न, ओ स्वकीयं, मम पुस्तके स्वकीयं दत्तं, स्वकीयं जालं.
हा अत्र तु स्वकीयं नास्ति.
स्वकीयं भवेत् सम्यक् भवति. स्वकीयं जालं तदेव विपुलं न भवति. समीचीनं नास्ति,
स्वकीयम् अत्र न दत्तमस्ति खलु.
आमाम्, अत्र विपुलम् एव स्वीकुर्मः. विपुलं नास्ति, जालं विपुलं न भवति खलु. स्वकीयं जालं प्रसार्य पक्षिणां ग्रहणं करोति स्म, तावता वृष्टिः, कीदृशी वृष्टिः? महती वृष्टिः. वृष्टिः इति स्त्रीलिङ्गः अस्ति, अतः वृष्टिः सञ्जाता. महती वृष्टिः सञ्जाता.
महती वृष्टिः सञ्जाता. समीचीनं महोदय, श्रीलिङ्गे अस्ति, महती वृष्टिः सञ्जाता. अस्तु, अग्रे गीताञ्जलि भगिनि.
आं महोदय, अरण्यं जलमयम् अभवत्, कीदृश अरण्यं? समग्रं,
हा समग्रम्, इदानीं समग्रम् अरण्यं
जलमयम् अभवत्. जीविनः आसन्न मरणाः अभवन्, जीविनः बहुवचनरूपं, जीविनः श्रेष्ठं.
तत्र बहुवचने प्रायशः अपि तत्र जीविनः आसन्नमरणाः इति अस्ति.
सर्वे इति अस्ति.
सर्वे सर्वे
सर्वः सर्वः सर्वो सर्वे
सर्वे. तत्र आसन्नमरणाः इति दृष्ट्वा तत्र लिङ्गं किम् इति वक्तुं शक्नुमः खलु भगिनि?
आसन्नमरणाः अत्र तु कर्तृपदमेव
अभवत् इति अस्ति अभवत् इति तत्र अभवन् अभवन् इति अस्ति अभवन्
पुंलिङ्गमेव महोदय
पुल्लिङ्ग अत्र आसन्नमरणाः अभवन् बहुवचने अस्ति पुल्लिङ्गरूपम् अस्ति
एकमेव पदम्
अत्र जीविनः अपि तत्र
पुल्लिङ्गमेव
अस्ति अतः सर्वे सर्वे जीविनः आसन्नमरणाः अभवन्
अभवन्
अतः तत्र तत्र भवती तत्र किं उक्तवती तत्र अरण्यं तत्र समग्रम् अरण्यं जलमयम् अभवत्
सर्वे
जीविनः
जीविनः
आसन्नमरणाः
अभवन्
समीचीनं भगिनि अस्तु अग्रे
लक्ष्मीन् नकारान्त अस्ति वा जीविन् वा अतः जीविनः वा
हा इति अस्ति महोदय अतः तत्र यस्मिन् जीवः अस्ति यस्मिन् जीवः अस्ति
इनि प्रत्ययः
इनि प्रत्ययः जीवि
अस्तु महोदय व्याधः कस्यचन वृक्षस्य अधः उपविष्टवान् वृक्षस्य षष्टिविभक्ति एकवचनरूपं सः उन्नतस्य वृक्षस्य अधः उपविष्टवान्
हा समीचीनम् उन्नतस्य वृक्षस्य अधः उपविष्टवान्
तस्मिन् वृक्षे कश्चन कपोतः पत्न्या सह वसति स्म वृक्षे षष्टि सप्तमी एकवचनं अतः उन्नते वृक्षे तस्मिन् उन्नते वृक्षे कश्चन कपोतः पत्न्या सह वसति स्म
हा कपोतः कया सह वसति स्म
पत्न्या सह
पत्न्या सह वसति स्म समीचीनं भगिनि अस्तु अग्रे शुभदा भगिनि
व्याधस्य अवस्थां दृष्ट्वा कपोती भर्तारम् अवदत् अवस्थां दीनाम् अवस्थां दृष्ट्वा कपोती भर्तारम् अवदत् भोः एषः व्याधः आपदि स्थितः अस्ति आपदि इति सप्तमीविभक्ति एकवचने वा सप्तमी एकवचने भवति अतः महत्यां महती आपदि महती महती आपद् अतः महत्याम् आपदि स्थितः अस्ति
हा समीचीनं भगिनि हा समीचीनं हा अग्रे अग्रे रघुनन्दं स्वामी
आं महोदय
शरणागतानां
रक्षणम् अस्माकं कर्तव्यं सः एव
कीदृशः
परमः धर्मः
सत्यं महोदय तदेव अस्ति सः एव
क्षम्यतां महोदय मम पुस्तके महती आपदि तु नास्ति महत्यां दत्तं महोदय
महत्यमेव उक्तं भगिनि
ओ अस्तु महत्यां
प्रथमाविभक्ति एकवचने तत्र आपदिति पदस्य विशेषणं महती आपद् इदानीं तस्य सप्तमी विभक्तिरूपं भवति महत्यां आपदि समीचीनम्
सः एव परमः धर्मः अतः भवान् व्याधस्य रक्षणं करोतु व्याधस्य षष्टि दुःखितस्य
समीचीनं महोदय तदेव अस्ति इति मन्ये अतः शरणागतानां रक्षणं अस्माकं कर्तव्यं.
सः एव परमः धर्मः, अतः भवान् दुःखितस्य व्याधस्य रक्षणं करोतु.
हा समीचीनं महोदय. हा अस्तु, अग्रे सूर्यकुमारी भगिनी.
कपोत्या प्रेरितः कपोतः कुतश्चित् स्थाने.
कपोत्या इति अस्ति, कपोत्या इति विभक्ति का?
कपोत्या पञ्चमी षष्ठी एकवचनं, षष्ठी
एकवचनं. न न, कपोत्या तत्र कपोति कपोत्या, नदी नद्या, चुरिका चुरिका, क्षम्यतां, कर्तरी कर्तर्या इति. किमस्ति
तृतीय एकवचनं?
तृतीय एकवचनं कपोत्या प्रेरितः.
कपोतः कुतश्चित् काष्ठानि.
काष्ठानि इति लिङ्गं किं, वचनं किम्?
काष्ठानि स्त्रीलिङ्ग, नपुंसकलिङ्ग प्रथमा विभक्ति बहुवचनं.
प्रायः द्वितीयविभक्ति बहुवचनं.
काष्ठानि आनीय, ओ काष्ठानि लघूनि काष्ठानि.
लघूनि एव समीचीनं भगिनि, लघूनि काष्ठानि आनीय.
अग्निं प्रज्वाल्य व्याघस्य
शीतबाधां
निवारितवान्.
कपोत्या, इदानीं पूर्णवाक्यं वदतु.
कपोत्या प्रेरितः कपोतः कुतश्चित् लघूनि काष्ठानि आनीय अग्निं प्रज्वाल्य व्याघ्रस्य
व्याधस्य
शीतबाधां निवारितवान्.
समीचीनं भगिनि. इदानीं तत्र अस्मिन् वाक्ये कर्मपदं किं किम् अस्ति इति एकवारं वदति वा?
कर्मपदं शीतबाधां
एकमस्ति, शीतबाधाम् अन्यत् अग्निमपि तत्र प्रज्वाल्य अस्ति इति कृत्वा तस्य कर्मपदम् अग्निम् अपि आनीय. किम् आनीय? काष्ठानि आनीय, तावदेव. किन्तु तत्र तस्य आनीय इति क्रियायाः कर्मपदम् अस्ति, सम्पूर्णवाक्यस्य कर्मपदं न, किन्तु तत् क्रियासूचकपदस्य कर्मपदम् अस्ति.
लबन्त
वा क्मान्त वा, किन्तु तत्र अहं पुस्तकं पठित्वा अग्रे गच्छामि, किन्तु पठित्वा अस्ति तत्र, किं पठित्वा इति अस्ति चेत् तत्र पुस्तकं, पुस्तकं द्वितीयविभक्तौ अस्ति, अतः तादृशार्थे. अतः तत्र काष्ठानि किम् आनीय, काष्ठानि आनीय, किं प्रज्वाल्य, अग्निं प्रज्वाल्य, किं निवारितवान्, शीतबाधां निवारितवान्. तत्र निवारितवान् इति प्रायशः तदेव क्रियापदम् अस्ति अस्मिन् वाक्ये, अथवा क्रियासूचकपदम्. अस्तु अग्रे भगिनि. व्याधस्य बुभुक्षा आसीत्, बुभुक्षा स्त्रीलिङ्ग पदं
प्रथमा,
प्रायशः महती, हा महती इति इदानीं समीचीनं भवति. अतीव इति प्रायशः अतीव
बुभुक्षा
आसीत्. अस्तु अतीव इति स्वीकुर्मः. अस्तु धन्यवादः भगिनि. हा अस्तु, अतीव बुभुक्षा आसीत्. अस्तु अग्रे रघुपति महोदय.
आम् महोदय. सः कपोतं भक्ष्यपदार्थम् अयाचत. अतिथीनां सत्कारं धर्मं मत्वा कपोतः अग्नौ पतित्वा मरणं प्राप्तवान्. धर्मं मत्वा अतिथीनां सत्कारं धर्मं मत्वा एकवारं महती सर्वान् सत्कारं श्रेष्ठं मत्वा श्रेष्ठं धर्मं मत्वा कपोतः अग्नौ पतित्वा मरणं प्राप्तवान्. व्याधः कपोतस्य मांसं खादित्वा बुभुक्षां निवारितवान्. कपोतस्य इति अत्र दग्धं वा कुत्र अस्ति? दग्धं कपोतं. मृतस्य कपोतस्य खलु अस्तु कपोतस्य मृतस्य कपोतस्य दग्धं मांसं खादित्वा बुभुक्षां निवारितवान्.
तत्र येन अग्निना यस्य दहनं भवति
सः
दग्धं दग्धः इदानीं तत्र मांसं दग्धं मांसम् अग्निना दग्धम् इति
किञ्चित् अधिकः अभवत् सत्कारः.
व्याधः मृतस्य कपोतस्य दग्धं मांसं खादित्वा बुभुक्षां निवारितवान्. अतिथीनाम् इति षष्ठी बहुवचनम् अतिथीनां सत्कारं श्रेष्ठं धर्मम् इति मत्वा. अस्तु समीचीनं महोदय. अस्तु निवारितवान्. हा अस्तु इदानीं गीताञ्जलि भगिनी सूर्यकुमारी भगिनी प्रश्नः आसीत् वा?
पूर्ववाक्ये अतीव अव्ययपदमस्ति महोदय.
अतीव इति हा प्रायश अतीव इति अव्ययमेव इति मन्ये भगिनि. अतीव इति मया न श्रुतम् अतः चिन्तयामि अतीव इति अव्ययमेव अस्ति इति मन्ये. धन्यवादः भगिनि. हा अस्तु अग्रे
तदनन्तरं बुभुक्षां निवारितवान् तस्य मनः अभवत् इत्युक्ते व्याधस्य मनः
प्रायश धन्यम् इति एव अस्ति.
आर्द्रं महोदय.
आर्द्रम् इति वा?
आर्द्रम् अपि
आर्द्रम् इत्युक्ते वेट् महोदय कथम्
आर्द्रम् इति
मृदुः
मृदुः तदपि भवितुमर्हति. अस्तु सत्यम्. अस्तु अतः तस्य मनः आर्द्रं
पूर्वं निष्ठुर आसीत् खलु अतः
आर्द्रम् अभवत्
सः पक्षिणः मोचितवान्. सः सर्वान् वा
सर्वान् इति अस्ति सर्वान्
पक्षिणः मोचितवान्
तत्र सर्वान् इति वयं जानीमः तत्र पक्षिणः इति द्वितीयविभक्तौ अस्ति इति पूर्वमपि दृष्टवन्तः. अतः तत्र पक्षिणः सर्वान् पक्षिणः मोचितवान् तस्य मनः आर्द्रम् अभवत् सः सर्वान् पक्षिणः मोचितवान्. समीचीनम्. अस्तु लक्ष्मी भगिनी अग्रे.
अस्तु एतत् दृश्यं दृष्ट्वा सः व्याधः
तत्र भर्तृविहीनम् इति तद् न पठितम् अतः
भर्तृविहीनं जीवनं व्यर्थं मत्वा कपोति अपि अग्नौ पतित्वा मरणं प्राप्तवती. एतत् दृश्यम् एतत् दृश्यं विस्मयावहं दृश्यं
विस्मयावहं
दृश्यं दृष्ट्वा सः व्याधः स्वस्य तस्य पापानि स्मरन् जन्म कर्तुम् इच्छन् अग्नौ आत्महूतिं कृतवान्।
हा इदानीं तत्र प्रायश पाप घोराणि इति घोराणि घोराणि पापानि
घोराणि
पापानि स्मरन्
पापानि
स्मरन्
पापानि स्मरन् जन्म कर्तुम् इच्छन् अग्नौ आत्माहूति कृतवान् जन्म धन्यम् धन्यं कर्तुम्
हा जन्म धन्यं कर्तुम् हा हा सत्यं भगिनि तत्र अन्यत् किमपि नास्ति खलु अतः तदेव भवति हा अस्तु
धन्यं कर्तुम् इच्छन् अग्नौ आत्माहूतिं कृतवान्
आत्माहूतिं
कृतवान्
समीचीनं भगिनि तत्र शत्रुन्तरूपम् अस्ति खलु तत्र स्मरण् इच्छन् इति स्मरण् इच्छन् जन्म किं जन्मानन्तरं किम् अस्ति धन्यं हा जन्म
धन्यं
हा तत्र जन्म इति तत्र तु तत् नपुंसकलिङ्गपदमेव अतः धन्यम् इति एव समीचीनमस्ति हा अपि तत्र जन्म कर्तुं तदपि द्वितीयविभक्तौ किन्तु नपुंसकलिङ्गरूपभेदः नास्ति अतः जन्म धन्यं कर्तुम् इच्छन् अग्नौ
आत्माहूतिं कृतवान्
कृतवान् स्वस्य आहुतिम् आत्माहुतिं कृतवान् समीचीनम् अस्तु
सर्वान् पापानि अपि समीचीनं वा तत्र
सर्वान् इति न भवति महोदय यतोहि सर्वान् इति तु पुल्लिङ्गे अस्ति पुल्लिङ्गरूपम् अस्ति अतः तत्र पापानि तु नपुंसकलिङ्गपदम् अतः तत्र मञ्जूषायां केवलं तत्र नपुंसकलिङ्ग बहुवचनरूपं किमस्ति तत्र प्रथमविभक्तौ वा द्वितीयविभक्तौ तत्र घोराणि इति एव
घोरमेव
सत्यं हा अस्तु अग्रे शुभदा भगिनी अग्रे तत्र श्लोकम् अस्ति तत्
शत्रावप्युचितं कार्यम् आतिथ्यं गृहमागते छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः शत्रावप्युचितं कार्यं शत्रावप्युचितम् अत्र तु सन्धि अस्ति शत्रौ अपि उचितं वा
शत्रौ अपि उचितं
शत्रौ अपि उचितं कार्यम् आतिथ्यं गृहम् आगते छेत्तुः पार्श्वगतां छायां न उपसंहरते द्रुमः
तत्र शत्रौ अपि उचितं कार्यम् आतिथ्यं गृहम् आगते
शत्रौ इति सप्तमी एकवचने भवति गुरौ गुरौ गुरौ
शत्रौ शत्रौ अपि उचितं कार्यम् आतिथ्यं गृहम् आगते चेत्तुः पार्श्वगतां छायां न उपसंहरते द्रुमः
द्वितीयवाक्यस्य तु अहं न जानामि परन्तु प्रथमवाक्यस्य
शत्रौ अपि उचितं गृहमागते शत्रौ अपि उचितं कार्यम् उचितं कार्यम् इति उचितं कार्यम् आतिथ्यम्
करणीयम्
परन्तु सप्तमी एकवचनं किमर्थम्
तत्र सप्तमी यतोहि तत्र सः आगते तत्र सति सप्तमी इति यदि सः आगतः अस्ति
आगते सति आगते सति सति उचितम् आतिथ्यं कार्यम् अस्माभिः इति कार्यं कर्मणि भवति महोदय कार्यं करणीयम् इति अस्माभिः कार्यम्
हा किन्तु तत्र सप्तमी इति अस्ति इति कृत्वा तस्मिन् विषये अहं चिन्ति नास्ति तावदेव
तादृश भवति अहं चिन्तयामि
सत्यं 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 हा तत्र सप्तमी इति भगिनि तत्र सति सप्तमी इति प्रयोगः अस्ति यदि इति अर्थे यदि इति स्थाने यदि किमपि भवति तर्हि इति वदामः अथवा यदा तदा इति तत्र यदा इति स्थाने तत्र यदा अनन्तरं यद्वाक्यम् अस्ति तस्य वाक्यस्य सप्तमी रूपं स्वीकृत्य अपि तत्र यदि यदा इति न तस्य वदनम् इदानीं तस्य आवश्यकता नास्ति अतः तादृश अत्र यदि अथवा यदा
अन्वयः अन्वयः किं भवति
वदामि गृहमागते शत्रौ सारी शत्रौ गृहमागते सति उचितम् आतिथ्यं कार्यम् इति सति इति अद्य हर्तव्यं सति इति नाट् रिक्वैर्ड् परन्तु शत्रौ गृहमागते सति उचितम् आतिथ्यं कार्यं केन अथवा कैः इति अस्माभिः इति अथवा मया अथवा किमपि
तत्र शत्रुः शत्रुः गृहमागतः गृहमागतः शत्रुः तस्य सप्तमी भवति शत्रौ गृहमागते गृहमागते शत्रौ इति
आतिथ्यमिति भावः वा अतिथि इति
यदा शत्रवः गृहम् आगच्छन्ति तेषां तदा तेषाम् उचितम् आतिथ्यं करणीयम् अथवा कार्यम् यदा तदा
यथा भवति तथा वृक्षाः छायां ददाति अग्रिम
ओके छेत्तुमिति छेदनं करोति छेदनं करोति चेदपि वृक्षस्य छेदनं करोति
वृक्षाः
छायां ददाति पार्श्वगतमिति वाट् इस् पार्श्वगतम्
समीपं यदि समीपं गच्छामः चेत्तुं चेत्तुः पार्श्वगतां छायां नो उपसंहरते द्रुमः चेत्तुः पार्श्वगतां छायां नो न उपसंहरते द्रुमः तत्र छायाम् इति पदस्य विशेषणमस्ति पार्श्वगतां पार्श्वे छाया अस्ति तत् खलु तत्र
द्रुमः इति वृक्षः
छायां न उपसंहरते
हा द्रुमः छायां कस्य चेत्तुः चेत्ता इति छेदनं कुर्वति चेत्ता इति चेत्तुः इति
छायां न उपसंहरते
चेत्तुः इति किं विभक्ति
छेदनं
विभक्ति भवति षष्टिविभक्ति भवति खलु महोदय
चेत्तुः
इति चेत्ता
तत्र प्रायशः क्षेत्र इति
द्रुमः न छायां न उपस पार्श्वगतां छायां न उपसंहरते
परन्तु तत्र तु छेत्तुः इति अस्ति त संयुक्ताक्षरः अस्ति किल
अस्तु अस्तु भगिनि क्षम्यतां प्रायशः तत्र पार्श्वगतां न उपसंहरते द्रुमः चेत्तुः
पार्श्वगताम् इति अत्र महोदय किम् अस्ति पार्श्वगतः
करोति चेदपि
हा तत्र कस्य छायां कस्य छायाम् इति अस्ति भगिनि
आमां पार्श्वगतां षष्ठीभक्ति तत्र
तत्र चेत् तत्र चेथा अस्ति चेत्था चेत्था इति प्रायशः अस्ति तत्र प्रथमविभक्तिरूपं न सम्यक्तया न जानामि, किन्तु यः छेदनं करोति तत्र छेत्थ तस्य छायां द्रुमः न उपसंहरते. चेतुः अस्ति, द्रुमः अस्ति, पार्श्वगता छाया, छाया पार्श्वगता अस्ति, छाया पार्श्वगता अस्ति, छाया द्रुमस्य समीपे अस्ति, छाया द्रुमस्य समीपे अस्ति, किन्तु द्रुमः तां छायां न उपसंहरते. तत्र छेत्र इति अस्ति, प्रायशः तत्र एकवारं द्रष्टव्यमस्ति ऋकारान्तपदं छेत्र इति किम्.
तदेव अहं चिन्तयामि, छेत्र इति छिद् धातुः अस्ति, छिद् छेदने.
अतः तद् द्रष्टव्यम् अस्ति.
पितृशब्दस्य पितुः इति षष्ठी विभक्ति, चेतुः वा अहं न जानामि.
हा तदेव अस्ति भगिनि, तत्र किञ्चित् तत्र ऋकारान्तपदं कीदृशं भवति इति किञ्चित् द्रष्टव्यमस्ति, किन्तु ऋकारान्तपदम् इति मन्ये रूपं दृष्ट्वा छेत्तुः इति छेत्था इति अथवा किमपि भवेत्. किन्तु इदानीं तत्र अर्थः अवगत, अर्थः तु समीचीनः इति मन्ये इदानीं, किन्तु तत्र केवलं तत् रूपं कीदृशम् इति द्रष्टव्यमस्ति.
पुल्लिङ्ग महोदय.
किं भगिनि?
पुल्लिङ्ग.
हा छेत्र इति एव अस्ति भगिनि, छेत्र. तत्र भगिनि भवती पृष्टवती किमर्थं तत्र तकारान्तस्य द्वित्वम् अस्ति इति. तकारान्तद्वित्वं प्रातिपदिके एव अस्ति,
चिद् दातु दकार अस्ति, अतः चित्र तकार अस्ति खलु, तृच् प्रत्यय अस्ति, तृ इति अस्ति अत्र,
अत्र
ऋकारस्य ऊ भवति अहं चिन्तयामि.
अतः पितृ इव नास्ति, पितृ मध्ये तत्र तकारम् एकमेव अस्ति, अत्र तु चेतृ, अतः चेतृ इति अस्ति, तकारस्य द्वित्वम्. अतः अत्रापि किन्तु षष्ठी समीचीनमेव. अस्तु, अतः तत्र अस्तु, तदपि इदानीं तत्र कथामपि पठितवन्तः, श्लोकस्य अवगमनमपि अभवत्. अस्तु, इदानीं तत्र लौकिकन्यायः
क्षम्यतां महोदय, क्षेत्र कथं कुत्र दत्तं तत् पदमेव अहं तु न.
क्षेत्र भगिनी स्पोकन् संस्कृत मध्ये स्थापयतु, सि हेच् इ टि टि आर् इति, केपिटल् आर् वुड् कटर्
इति.
अतः तत्र चेत्तुः इति ऋकारान्तपदम्, अतः जानीमः तत्र पिता पितुः, पितृ पितुः, चेतृ चेत्तुः इति
दत्तमस्ति.
अत्र चेत्र ऋकारान्तपदं, तत्र ऋकारान्तपदं तु पुल्लिङ्गे वा स्त्रीलिङ्गे वा भवितुमर्हति खलु. अतः अस्तु, अतः अस्तु, इदानीं तत् कृतं. तत्र किं समयः अस्ति वा? तत्र प्रथमन्यायः, हा तत् प्रायशः पठितुं शक्नुमः तत्र. अस्तु, रघुवीरनन्दस्वामी तत्र अग्रे तत्र
रूपाणि कथम् अस्ति, क्षेत्र तु
पिता तत्र एषः प्रयोगः तु प्रसिद्धः अस्ति भगिनि, तत्र ऋकारान्तपदं ऋकारान्तप्रातिपदिकं, यः कोऽपि धातुः अस्ति तं धातुं स्वीकृत्य तत्र प्रातिपदिकं कर्तुं नामपदं कर्तुं शक्नुमः. तत्र वदति वक्ता वक्तृ, ददाति धातृ, यः सा तां क्रियां करोति हा च दाता वक्ता, अत्र
भर्ता भरति,
हा अतः तत्र प्रसिद्धप्रयोगः अस्ति ऋकारान्तपदम्
द्रुमः वृक्षः महोदय
वृक्षः सत्यं भगिनि
इत्युक्ते अत्र छेदनं
यः छेदनं करोति सा चेत् तस्य
वृक्षः अस्ति एषः पुरुषः तस्य तस्य छेदनं कर्तुम् इच्छति तस्य पुरुषस्य छाया वृक्षस्य समीपे अस्ति किन्तु वृक्षः तां छायां न उपसंहरति अतः तत्र छेत्तुः पार्श्वगतां छायां छाया कीदृशी पार्श्वगता कस्य पार्श्वगता तत्र ध्रुमस्य पार्श्वगता ध्रुमस्य समीपे आगता अथवा गता छाया तां छायां न उपसंहरति ध्रुमः इति अस्तु अतः तत्र रघुवीरनन्दस्वामी तत्र लौकिकन्यायः इति अस्ति एकवारं तत्र प्रथमं कुर्मः महोदय
सत्यं महोदय प्रस्तुतं कमपि विषयं स्पष्टीकर्तुं संस्कृतसाहित्ये लौकिकन्यायानां प्रयोगः क्रियते एतादृशाः शताधिकाः न्यायाः शास्त्रेषु काव्येषु च तत्र तत्र प्रयुक्ताः दृश्यन्ते प्रथमम् अन्धपरम्परान्यायः यदा कोऽपि जनः बुद्ध्या विचार्य अन्धः इव अन्येषाम् अनुकरणं करोति तदा एषः न्यायः प्रयुज्यते सः न चिन्तयति यत् एतत् अनुकरणं स्वम् अन्धकारं प्रति नयति
अस्तु समीचीनं महोदय किञ्चित् ब्लैण्ड् शीप् तत्र अन्धपरम्पराः
अन्धः स्वस्य दृष्टिः नास्ति अन्धः अतः सः अन्यैः कोऽपि अग्रिमम् गच्छति चेत् तस्य अनुकरणम् अनुपालनं करोति तथैव कोऽपि यदि नेत्रम् अस्ति चेत् नेत्रे अस्ति किन्तु स्तः किन्तु सः अनुपालनमेव करोति सः स्वयं न चिन्तयति बुद्धिप्रयोगं न करोति
बुद्धेः प्रयोगं न करोति अविचार्य स्वबुद्ध्या अविचार्य अन्धः इव अन्येषाम् अनुकरणम् अनुसरति अन्यम् अनुसरति अथवा अन्येषाम् अन्यान् अनुसरति अथवा अन्येषाम् अनुकरणं करोति एषः न्यायः प्रयुज्यते हा प्रसिद्धः न्यायः एषः अस्तु समीचीनं महोदय तत्र अन्यत् किमपि वक्तव्यमस्ति वा तत्र प्रायशः तत्र तत्र कति न्यायाः सन्ति इत्युक्ते तत्र शताधिकाः न्यायाः दृश्यन्ते तत्र अहं न जानामि यदि तत्र कुत्रापि तत्र आवली अस्ति वा तत्र न्यायावली इति किमपि
लौकिकन्याय इति संस्कृतभारते पुस्तकम् अस्ति
इति वा अस्तु 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 समीचीनं
लौकिकन्याय इति
लौकिकन्याय अस्तु समीचीनं बहु समीचीनमेव भवति
वेदान्तशास्त्रे सर्वेपि तस्य प्रयोगमस्ति
इति वा तत्र न्याय अस्तु अस्तु तर्हि अतः तत्र अग्रिमे वर्गे तदपि तस्मिन् विषये अपि प्रश्नः तत्र अग्रिमे सप्ताहे सर्वे आगच्छन्ति वा अथवा आगन्तुं शक्नुवन्ति वा न शक्नु अस्तु अस्तु अतः तत्र अग्रिमे सप्ताहे वर्गः मास्तु तदनन्तरं किं भवति तत्र तदनन्तरं विंशति अस्तु हा किन्तु जनवरी मासे तु तृतीय अथवा चतुर्थदिने तत्तु समीचीनं खलु अस्तु अतः तत्र अग्रिमे सप्ताहे वर्गः मास्तु तदनन्तरम् तस्य अग्रिमे सप्ताहे वर्गः पुनः भवति अस्तु तर्हि तत्र रघुपतिमहोदय भवानेव अन्ते तत्र
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 श्रीगुरुभ्यो नमः धन्यवादः महोदय
धन्यवादः